आपूहिष्ठामयो भुवः तान ऊर्जे दधातना महेरणाय चक्षसे यो वः शिवतमोरसः तस्य भाजयते हनः उसतीरिव मातरः तस्मारङ्गमामवो यस्य क्षयाय जन्मथा आपो जनयथा च नः सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्यात् पापमकारुषम् मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिष्या रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सूर्ये ज्योतिषजुहोमि स्वाहा तिराचामेत् द्विपरिभुज्या सकुदुमस्पृश्या यत्सव्यं पाणिं पादौ प्रोक्षति शिरः चक्षुषि नासिके श्रोत्रे दधिक्रावण्णो अकारुषं जिष्णोरश्वस्य वाजिनः सुरभिनो मुखाकरत्प्रणः योगुंषितारिषत् आपोहिष्ठामयो भुवः तान ऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमोरसः तस्य भाजयते हनः उसतीरिव मातरः तस्मारङ्गमामवो यस्य क्षयाय जन्मथा आपो जनयथा च नः हिरण्यवर्णाः शुचयः पावकाः या सुजातः कश्यपो यासो इन्द्रः अग्निं या गर्भं दधिरे विरूपास्तान आपश्यग्स्यो नाभवन्तु यासागुं राजा वरुणो याति मध्यानत्यानृते अवपश्यञ्जनानां मधुश्च्युतः शुचयो याः पावकास्तान आपश्यग्स्यो नाभवन्तु यासां देवा दिवि कृण्वन्ती भक्षं या अन्तरिक्षे बहुधा भवन्ती याः पृथिवीं पयसोन्दन्ती शुक्रास्तान आपश्यग्स्यो नाभवन्तु शिवे नमः चक्षुषा पश्यतापशिवया तनुवोपस्पृशतत्वचं मे सर्वागमग्नीनप्सुषदो हुवेवो मयि वच्चो बलमोजो निधत्ता द्रुपदादिव मुञ्चत् द्रुपदादिवेन्मुचानः स्विन्नस्वात्वीमलादिवा भूतं पवित्रेणैवाज्यम् आपश्युन्धन्तु मैनसः त्विराचामेत् द्विपरिमृज्या सकुतुमस्पृश्य यत्सव्यं पाणिं पादौ प्रोक्षति शिरः चक्षुषि नासिके श्रोत्रे